एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। मन्त्री परिषदे पूर्णता प्रदान प्रवृत्ति विषयेषु सत्तारूढ दलानाम् शीर्ष नेतृणाम् मध्ये यो विमर्शनम् अभवत्। बालुवाटारा वर्तिनी प्रधानमन्त्री निवासे सम्पन्ने मेलने मन्त्री परिषदः विस्तारस्य उपनिर्वाचनस्य च विषययो विमृष्टमिति प्रधानमन्त्रिणः संचार विज्ञ मनोहरी तिमल सिन्हा अज्ञापयत्। मन्त्री परिषदे तत्कालम् पूर्णता प्रदानस्य पूर्वकार्यस्य स्वरूपेण प्रधानमन्त्रिणा सत्तारूढयो नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर नेकपा एकीकृत समाजवादी दलस्य अध्यक्षेण माधव कुमार नेपालेन च सह एवं विमृशत। कांग्रेस दलेन अतिरिक्तानाम् मन्त्रीणाम् नाम्नाम् अप्रदानात् सर्वकारेण पूर्णता प्राप्ता नास्ति। कांग्रेस दलाय अतिरिक्तान् चतुरो मन्त्रिणः अन्यस्मै दलाय अतिरिक्तौ द्वौ मन्त्रालयौ च प्रदाय सर्वकाराय पूर्णता प्रदानार्थं प्रधानमन्त्री प्रचण्ड पूर्वकार्यं कुर्वाणो वर्तते। राष्ट्रपतिः रामचन्द्र पौडेलः कथयति नेपालः आविश्वम् नेपाली संस्कृत्या नेपालीत्वेन च परिचितो वर्तते। अमेरिका देशस्य इन्टरनेशनल वेलफेयर एण्ड सपोर्ट फाउण्डेशन नाम्नः प्रतिष्ठानस्य आयोजनायाम् काष्ठमण्डपे सञ्चल्यमानायाः मेरो भोइस यूनिवर्स मेरो डान्स यूनिवर्स नामधेयायाः स्वस्य विश्वस्वर नृत्य प्रतियोगितायाः सहभागिनः कलाकारान् पूर्वेद्युः सम्बोधयन् राष्ट्रपतिः पौडेलः अवदत् नेपाले न केवलं जातिषु धर्मेषु च अपितु प्रकृतौ संस्कृतौ च विविधता वर्तते। राष्ट्रपतिः पौडेलः नेपाले विभिन्नानाम् परिवाराणाम् समुदायानाम् सम्मिश्रिता संस्कृतिः विद्यते इति भाषमाणः सर्वेषाम् मेलनादेव नेपालीनाम् मध्ये एकता बलवती जायमानास्तीति प्रत्यपादयत्। नेपालस्य भाषा संस्कृति साहित्यानाम् विश्वस्य पुरतः परिचायनाय आगामी दिनेष्वपि एवं विधानिक कार्याणि निरन्तरम् सञ्चालयितुम् राष्ट्रपतिः पौडेलः प्रतिष्ठानम् परामृशत्। प्रतिष्ठानस्य अध्यक्ष दिल्ली अधिकारी आसन् संसारम् विकीर्ण रूपेण विद्यमानानाम् नेपालीनाम् स्वस्य पूर्वजानाम् देशेन सह नेपाली भाषा कलयोर माध्यमेन संयोजनाय संसारात् प्रतिभाः विचित्य नेपालम् एव समानीय च प्रतियोगिता आयोजितेति अवदत्। प्रतिष्ठानेन अफ्रिका महादेशम् विहाय विश्वस्य षण्णाम् महादेशानाम् द्वापञ्चाशतोऽपि अधिकेभ्यो देशेभ्यो मदीयम् विश्वस्वर नृत्यम् चेति कार्यक्रमस्य माध्यमेन नेपाली प्रतिभाः प्रारम्भिकरूपेण काष्ठमण्डपम् आनीताः सन्तीति ज्ञापितम् वर्तते। उपप्रधान गृहमन्त्री नारायणकाली श्रेष्ठ कथयति गोरखा धादिङ जनपदयोः सीमाक्षेत्रे स्थितायाः बुढी गण्डकी जलाशय युक्ता योजनायाः निर्माण कार्यम् आगामिनः आर्थिक वर्षात् प्रारप्स्यते। गोरखा जनपदस्य पालुङटार नगरपालिकायां महा टार युव समूहस्य आयोजनायाम् य प्रारब्धायाः पादकन्दुक क्रीडा प्रतियोगितायाः उद्घाटन कार्यक्रमम् सम्बोधयन् मन्त्री श्रेष्ठ आगामिनः आर्थिक वर्षात् देशस्य आर्थिक सामाजिक परिवर्तनाय महत्वपूर्ण भूमिका सम्वाहिकायाः राष्ट्रिय गौरवस्य बुढी गण्डकी जलविद्युत योजनायाः निर्माण कार्यम् प्रारप्स्यते इति अज्ञापयत्। मन्त्री श्रेष्ठ बेनीघाट आरूघाट रुइला भन्ज्याङ मार्गम् निर्माय चीन देशेन सम्पृक्तम् सीमा प्रवेश बिन्दुम् सञ्चालयितुमपि सर्वकारेण प्रस्तावितमिति च अज्ञापयत्। कृषि पशुपक्षी विकास मन्त्री डाक्टर बेदुराम भूषालः भाषते कृषि उत्पादनस्य वृद्ध्यैव अर्थतन्त्रे सुधारः सम्भवति। कपिलवस्तु समाजेन ह्यो ललितपुरे आयोजिते कार्यक्रमे मन्त्री डाक्टर भूषालः अगदत् आराष्ट्रम् सम्प्रति दशलक्षाणाम् त्रिंशतः सहस्राणाम् च हेक्टर परिमाणस्य भूमिः कृषिरहितास्तीति हेतोः एतस्याः उपयोगे विहिते सति इदानीम् विद्यमानः कृषिवस्तूनाम् आयातः एक तृतीयांशेन न्यूनीकर्तुम् शक्यते। मन्त्री डाक्टर भूषालः मलाय कृष्यै च प्रदीयमाने अनुदानम् सौविध्यम् च दुरुपयुज्यमाने स्तः इति चर्चयन् एतद्रोद्धुम् प्रयत्यमानम् वर्तते अत्र राजनीतिक दलैः सर्वेषाम् सहयोग आवश्यको स्थिति अब्रवीत्। मन्त्री डाक्टर भूषालः सिंचनस्य प्रमुख समस्यायुते कपिलवस्तु जनपदे स्वस्य कार्यकाले समाधानाय यथाशक्ति प्रयत्यते इत्यगदत्। कार्यक्रमे सांसदः सुरेन्द्र राजा आचार्यः देश विकासस्य कार्याय स्वार्थादुपरि उत्थाय सर्वेषाम् दलानाम् नेतृ कार्यकर्तृभिः एकीभूय अग्रे वर्धितुम् बलम् प्रादात्। नेपाली कांग्रेस दलस्य महामन्त्री गगन कुमार थापा भाषते दलस्य नित्यधिवेशने दलस्य सुदृढीकरणस्य शुद्धिकरणस्य च विषये व्यापकं विमर्शनं भविष्यति। नेपाली कांग्रेस दलस्य मकवानपुर काष्ठमण्डप सम्पर्क समित्या ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे महामन्त्री थापा नेपाली कांग्रेस दलेन ज्येष्ठ मासे आयोक्ष्यमाणे नित्यधिवेशने दलस्य सुदृढीकरणस्य शुद्धिकरणस्य च विषये व्यापकतया विमृक्ष्यते इत्यवोचत। कार्यक्रमे महामन्त्री थापा केनापि दलेन एकल सर्वकार निर्माणस्य अवस्था नास्तीति तर्कयन् निर्वाचन प्रणाल्यां सुधाराय संविधानं संशोधनीयम् इति च विचारं व्यक्तवान्। नेपाली कांग्रेस दलस्य केन्द्रीय सदस्य डाक्टर शेखर कोइराला कथयति वर्तमान अवस्थायां नेपाली कांग्रेस दलस्य नेतृ कार्यकर्तृभिः ऐक्यबद्धैर्भाव्यम्। नेपाली कांग्रेस दलस्य मोरङ जनपद शाखया ह्य मोरङ जनपदे आयोजिते कार्यक्रमे नेता कोइराला विगतस्य वैमनस्यं विस्मृत्य आगामी दिनेषु बहुमतस्य सर्वकारस्य निर्माणस्य उद्देश्येन अग्रे वर्धितुं नेतृन् कार्यकर्तृञ्च अन्वरुणत्। रासपा नाम्ना राष्ट्रिय स्वतन्त्र दलेन स्वस्य समानुपातिक सांसदाय ढाका कुमार श्रेष्ठाय विहितस्य दण्डनस्य विषये संघीय संसद सचिवालयेन अध्ययनं विधीयते। रासपा दलेन समानुपातिक सांसद श्रेष्ठ गत चैत्रस्य त्रिंशे दिवसे सांसद पदात् निष्कास्य दलस्य साधारण सदस्यतायाश्च निरसनत्वेन दण्डित आसीत्। त्रिसप्तत्यधिक द्विसहस्रतम विक्रम वर्षीय राजनीतिक दल सम्बद्धादि नियमे स्थिताया व्यवस्थाया अनुसारेण संघीय सचिवालयेन रासपा दलेन श्रेष्ठाय विहितं दण्डनम् विधिसम्मतम् अस्ति नवेति विषय अदीय मानोस्थिति ज्ञापितं वर्तते। सचिवालयेन अद्यत एतद्विषय अधीत्य यथार्थ विवरणं सभामुखाय अवबोधस्यते इति संघीय संसदः प्रवक्ता एकराम गिरी अज्ञापयत। प्रवक्तुः गिरेः अनुसारेण राजनीतिक दल सम्बद्धाधिनियमे वर्तमानायाः व्यवस्थायाः अनुसारेण साधारण सदस्यतातः निष्कासनाय अवलम्बनीया प्रक्रिया दलेन अवलम्बितास्ति नवेति विषयः संघीय संसद सचिवालयेन अध्येष्यते। रौतड जनपदस्य गढ़ीमाई नगरपालिकायां भूमि सम्बद्धे विवादे गोलिका प्रहारात एको जना मृत्यु वर्तते। गढ़ीमाई नगरपालिकायाः अष्टमवडा क्षेत्र स्थिते धोबिनिया स्थाने भूमि सम्बद्ध विवादनस्य क्रमे पक्षद्वयस्य मध्ये सम्भूते संघर्षे गोलिका प्रहृतेति रौतड जनपद प्रहरी कार्यालयस्य प्रमुख प्रहरीपरीक्षकः वीरबहादुर बुढा मगर अवोचत। गोलिका घातेन स्थानीय राजकुमार राय यादवः अम्रियत। गोलिका प्रहार इदानीं यावत् अज्ञात एव वर्तते। गढ़ीमाई नगरपालिकया निर्मीय मानस्य मार्गस्य विषये विवादोद्भवनात् गोलिका प्रहृतेति प्रहरी सूचयति। गोलिका घातेन स्थानीयवासिनः रामप्रताप यादव कपिलदेवराय यादव निरञ्जन यादवश्च आहताः सन्ति। प्रहरिणा घटनायां संलग्नतायाः आशंकया पञ्चजनाः निगृहीताः सन्ति। मकालु प्रकाशन गृहात् प्रकाशितानि त्रीणि पुस्तकानि ह्य लोकार्पितानि वर्तन्ते। उप प्रधानमन्त्री गृहमन्त्री च नारायण काजी श्रेष्ठ चीन देशीय दूतावासस्य उपप्रमुख काउन्सिलर पदीय वाङसिन च पुस्तकानि इमानि व्यमुञ्चताम्। नेपाल प्रज्ञा प्रतिष्ठानस्य पूर्व कुलपतिना गंगा प्रसाद उप्रेती इत्यनेन लिखितस्य चक्रव्यूह नामकस्य नेपाली कविता संग्रहस्य एन इम्पेनेट्रेबल पोर्टिफिकेशन नामक आंग्लभाषी अनुवादः मकालु प्रकाशन गृहस्य प्रबन्ध निर्देशकेन वासुदेव ढकालेन लिखितं चीन देशीय यात्रिणा फारियान इत्यस्य यात्रा विवरणम् अन्यम् एकं पुस्तकं च लोकार्पितानि सन्ति इति समाचाराः।